दत्तात्रेयम् त्वाम् नमामि प्रसीद त्वम् सर्वात्मा सर्वकर्ता न वेद कोऽप्यन्तम् ते सर्वदेवाधिदेव ज्ञाराज्ञातान् मे पराधान् क्षमस्व त्वदुद्भवत्वात् त्वदधीनधित्वात् त्वमेव मे वन्द्य उपास्य आत्मन् अथापि मौढ्यात् स्मरणम् न ते मे कृतम् क्षमस्व प्रियकृन् महात्मन् भोगापवर्गप्रथमार्तबन्धुम् कारुण्यसिन्धुम् परिहाय बन्धुम् हिताय चान्यम् परिमार्गयन्ति हा मादृशो नष्टदृशो विमूढा न मत्समो यद्यपि पापकर्ता न त्वत्समोऽथापि हि पापहर्ता न मत्समोऽन्योदयनीय आर्य न त्वत्सम क्वापि दयालुवर्यः अनाथनाथोऽसि सुदीनबन्धो श्रीशानुकम्पामृतपूर्णसिन्धो त्वत्पादभक्तिम् तव दासदास्यम् त्वदीयमन्त्रार्थ दृढैकनिष्ठाम् गुरुस्मृतिम् निर्मलबुद्धिम् आदिव्याधिक्षयम् मे विजयम् च देहि इष्टार्थसिद्धिम् वरलोकवश्यम् धनाङ्गवृद्धिम् वरगोसवृद्धिम् पुत्रादिलब्धिम् मे उदारताम् च देहीश मे चास्त्वभयम् हि सर्वतः ब्रह्माग्निभूम्यो नमोषधीभ्यो वाचे नमो वाक्पदये च विष्णवे शान्तास्तु भूर्नः शिवमन्तरिक्षम् दौषाभयम् नोऽस्तु दिश शिवाश्च आपश्च विद्युत्परिपान्तु देवाः शं सर्वतो मे भयमस्तु शान्तिः।